यङन्तदातवः इति विषयः अस्ति. गते सप्ताहे सिद्धतिङ्प्रत्ययाः दृष्टाः, अपि च सुबन्तपदानि अपि अवलोकितानि. इदानीं पुनः किञ्चिदेव पुनस्मरणं कृत्वा अग्रे सरेम. अत्र कुत्र कुत्र भवति इति भागं पठित्वा अग्रे सरेम. तर्हि यङ् प्रत्ययः कुत्र कुत्र भवति इति चेत् चतुर्णां सूत्राणां वार्तिकानां च मिलित्वा अर्थः एवम् इति पश्यन्ति वा? यङन्तस्य धातुसंज्ञा इत्यस्मात् प्राक् अस्तु भगिनी, भगिनी एव पठतु कृपया.
तर्हि यङ् प्रत्ययः कुत्र कुत्र भवति इति चेत् चतुर्णां सूत्राणां वार्तिकानां च मिलित्वा अर्थः एवम्. अजादिधातुषु अट् रु अश् ऊर्णु इत्येभ्यः एव यङ् भवति. अवशिष्टेभ्यः अजादिधातुभ्यः यङ् न भवति. हलादिधातवः द्विविधाः, अनेकाचः एकाचः च. अनेकाच् धातुषु केवलं सूचि सूत्रि मूत्रि इत्येभ्यः त्रिभ्यः यङ्गः भवति. अवशिष्टेभ्यः हलादि अनेकाच् धातुभ्यः यङ् न भवति. सर्वे निजन्ताः सनन्ताः च धातवः अनेकाचः, अतः तेभ्यः यङ् न भवति. चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः, अतः तेभ्यः अपि यङ् न भवति. दीधी बेबी दरिद्रा जागृ चकास इत्यादिभ्यः अपि यङ् न भवति. पठ वद मुद बुध इत्यादिभ्यः सर्वेभ्यः एकाच् हलादिधातुभ्यः यङ् प्रत्ययो भवति. अत्र यङ् विधायकसूत्रमस्ति धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन. अत्र उक्तमस्ति यत्र अतिशयार्थे अथवा वारं वारं क्रिया भवति इत्यर्थे एकाच् हलादि एकाच् धातुभ्यः यङ् भवति इति. इत्युक्ते अत्र अजादिधातुषु सामान्यतया न भवति, किन्तु अत्र विशिष्टसूत्रमस्ति सूचि सूत्रि मूत्रि अटति अर्ति अश् ऊर्णोतीनां यङ् वक्तव्यम् इत्यनेन अजादिधातवः सन्ति अट् रु अश् ऊर्णु. एतेभ्यः धातुभ्यः यङ् भवति एतेन सूत्रेण. हलादिधातुषु वार्तिकेन हलादिधातुषु अत्र एकाच् धातुः अस्ति चेत् भवति एव, किन्तु सूचि सूत्रि मूत्रि त्रिभ्यः धातुभ्यः अनेकाचः सन्ति किन्तु यङ् भवति. निजन्तः धातवः आतिदेशधातवः निजन्ताः सनन्ताः भवन्ति चेत् ते सर्वे अनेकाच् धातवः, अतः अत्र यङ् न भवति. अवशिष्टेभ्यः एकाच् हलादिधातुभ्यः यङ् प्रत्ययः भवति इति.
अस्ति इति अस्माकं सन्दर्भः बहु समीचीनमस्ति. अस्तु, अनन्तरं यङन्तस्य धातुसंज्ञा इति छन्दशकं तत्र सारांशं वदति वा, तत्र कथं भवति इति?
अत्र न पठामि खलु, एकं केवलं सारांशः.
सारांशः अथवा नाम परिचयः मनसि तत्र परिचयः अस्ति चेत् तत्र धातुसंज्ञा अपि च पदत्वं.
अस्तु, यदा यदि यङ् प्रत्ययः विधीयते तर्हि सनाद्यन्तः धातवः इत्यनेन धातुसंज्ञा प्राप्यते धातु तत्. तदनन्तरं नूतनधातुः इदानीं अस्ति, तदनन्तरं तस्मात् शबादि अथवा लट् रूपाणि सार्वधातुकरूपाणि साधयितुं शक्नुमः वयं. तर्हि अत्र यङ् ङित्वत्वात् आत्मनेपदरूपं पदिरूपमेव भवति. तदर्थं आत्मनेपदिप्रत्ययानां आत्मनेपदि लटि सिद्धप्रत्ययः अत्र दत्तमस्ति. तेषां योजनेन वयं लट् लोट् लङ् विधिलिङ् एतानि रूपाणि साधितुं शक्नुमः.
लट् लकारस्य सिद्ध तिङ् प्रत्ययः लोट् इत्यस्य, लङ् इत्यस्य, विधिलिङ् इत्यस्य इति अस्माभिः दृष्टं गतसप्ताहे. अत्र प्रश्नः आगतः आसीत् यत् भुआदिगणे यथा यत्र अङ्गमदन्तमस्ति यथा सामान्य सिद्धतिङ् प्रत्ययाः भवन्ति, किमर्थं तथैव न तु यत्र अभ्यस्तसंज्ञा अस्ति तत्र किञ्चित् परिवर्तनं कृत्वा इति प्रश्ने सति अग्रे लिखितमस्ति. अत्र विद्याभगिनी कृपया पठतु अग्रे अत्र प्रश्नः.
अत्र प्रश्नः उदेति यत् यङन्तधातुः अभ्यस्तसंज्ञकः, अतः किमर्थं न अदभ्यस्तात् इत्यनेन जस्थाने अत् आदेशः, न तु जोन्तः इत्यनेन झस्थाने अन्तादेशः. उत्तरमस्ति यत् देदीययोगः शप् योगः ते, देदीययोगः ते इति स्थले देदीय इति धातोः उभे अभ्यस्तम् इत्यनेन द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः अवश्यं, किन्तु ते प्रत्ययम् अधिकृत्य अङ्गम् अभ्यस्तसंज्ञकं नास्ति. अङ्गस्य अन्ते शप् अस्ति, शबन्तस्य अङ्गस्य यया रीत्या धातुसंज्ञा नास्ति तया एव रीत्या अभ्यस्तसंज्ञा अपि नास्ति. अपि च अदभ्यस्तात् इति सूत्रे पञ्चमी विभक्तिः अस्ति. पञ्चमी इति कारणतः तस्मात् इति उत्तरस्य इत्यनेन साक्षात् अनन्तरं कार्यं भवेत्. अभ्यस्तसंज्ञात् अङ्गात् शप् अस्ति न तु झ, अतः अदभ्यस्तात् इत्यस्य प्रसक्तिः नास्ति एव. तर्हि किमर्थं न आत्मनेपदेश्वनतः इत्यनेन झ स्थाने अत् आदेशः. आत्मनेपदेश्वनतः वक्ति यत् अनदन्त अङ्गात् आत्मनेपदसंज्ञकप्रत्ययस्य झकारस्य अत् आदेशः. यङन्तधातुः आत्मनेपदि इति तु अस्ति, किन्तु शबन्तम् अङ्गम् अनदन्तं न अपि तु अदन्तम् एव. अदन्तम् इति कृत्वा आत्मनेपदेश्वनतः इत्यस्य प्रसक्तिः नास्ति. अतः अन्ततो गत्वा जोन्तः इत्यनेन जकारस्य स्थाने अन्त् आदेशः. तदर्थं लटि अन्ते लोटि अन्तां लङ्गि अन्त इति भवति. तर्हि अत्र प्रश्नः आसीत् किमर्थं तत्र यत्र ज इति प्रत्ययः अस्ति बहुवचने, प्रथमपुरुषे बहुवचने, तत्र किमर्थम् अत् इति आदेशः न भवति ज स्थाने अदभ्यस्तात् इत्यनेन. परन्तु अत्र तु जोन्तः इत्यनेन अन्तादेशः एव अस्ति. तर्हि तस्य उत्तरमस्ति यदि देदीययोगः शप् योगः ते इति अस्ति, तत्र देदीय इति यङन्तधातुः, तत्र मध्ये शप् इति आयाति, तत्र देदीय इति अङ्गम् अस्ति. यद्यपि देदीय इति धातुः, तत्र देदी इत्यस्मिन् उभे अभ्यस्तम् इत्यनेन तत्र अभ्यस्तसंज्ञकः अस्ति. परन्तु यत्र शबन्तं भवति देदीय, यत्र शब् शब् योजयित्वा देदीय, तत्र
एकनिमेष अत्र उभे अभ्यस्तम् इति कस्य भागस्य?
ओ, यकारः अपि तस्मिन् अन्तर्भूतः. देदीय एव उभे अभ्यस्तम्. आम्, अत्र यङ् इति तत्र यङ् इति स्थानी अस्ति. हा, देदीय इति अभ्यस्तसंज्ञकः. हा, क्षम्यताम्. तर्हि अत्र शप् इति प्रत्ययं योजयामः, तत्र यत्र शबन्तं भवति तत्र अङ्गस्य अन्ते तत्र अभ्यस्तसंज्ञा नास्ति. यथा वयं पूर्वं दृष्टवन्तः, तत्र यत्र अङ्गमस्ति तत्र प्रत्ययान्तमस्ति, तत्र धातुसंज्ञा अपि नास्ति. यया रीत्या धातुसंज्ञा नास्ति एवमेव तत्र अभ्यस्तसंज्ञा अपि नास्ति. अतः
उदाहरणं ददातु, यथा भूधातुः
भूयोगः शप् योगः ति इति अस्ति. तत्र भू इति धातुः, तत्र शप् इत्यस्मिन् अ एव अवशिष्यते, तत्र गुणकार्यम् अपि च एचोयवायवः इति कृत्वा भव इति भवति. इदानीं भू इत्यस्य धातुसंज्ञा अस्ति, भव इति अङ्गम् अस्ति, अङ्गं तत्र अङ्गस्य अन्ते तत्र धातुसंज्ञा नास्ति.
अङ्गस्य अन्ते इति न, भव इति अङ्गस्य धातुसंज्ञा नास्ति.
भव इति अङ्गस्य धातुसंज्ञा नास्ति, तर्हि तत्र भव योगः इति भवति इति भवति. एवमेव
लिखति तत्र इतोपि स्पष्टं भवति, लिखति वदतु.
हा, लिक् योगः तुदादिगणे, लिक् योगः तत्र तुदादिभ्यः श इत्यनेन श विकरणप्रत्ययः, लिक् योगः श योगः ति, तत्र लिक् श इत्यस्मिन् अकारः अवशिष्यते, तर्हि लिक् योगः अयोगः ति. लिक् इत्यस्मिन् तत्र धातुसंज्ञा अस्ति, यदि तत्र अङ्ग प्रत्ययं योजयामः लिक इति अङ्गं, तत्र धातुसंज्ञा न तिष्ठति, तर्हि लिखति इति रूपम्.
हा, तत्र लिक् इति अपि अङ्गसंज्ञा भवति, धातुसंज्ञा अपि भवति, किन्तु एकवारं यदा लिख इति भवति खलु, तत्र विकरणप्रत्ययस्य विद्यमानत्वात् अङ्गसंज्ञा यद्यपि अस्ति, धातुसंज्ञा तदानीं न तिष्ठति इति. यया रीत्या
धातुसंज्ञा नास्ति, तया एव रीत्या अभ्यस्तसंज्ञा अपि नास्ति. तत्र देदीय योगः शप् इति योजयामः, तत्र अतो गुणे इति कृत्वा तत्र देदीय इति अङ्गम् अस्ति, तत्र धातुसंज्ञा अपि नास्ति, अभ्यस्तसंज्ञा अपि नास्ति इति इदानीं शबन्तं जातम्.
यद्यपि समानं दृश्यते खलु.
आं,
सर्वे अवगच्छन्ति वा? धातुः कः आसीत्?
धातुः देदीय इति धातुः, देदीययोगः शप् योगः ते इति अस्ति, शप् इत्यस्मिन् आ इति अवशिष्यते, तर्हि देदीययोगः अ, तत्र अतो गुणे इत्यनेन तत्र देदीय तत्र अन्ते अकारः अस्ति, अनन्तरं गुणसंज्ञकः वर्णः अकारः अस्ति, तर्हि अतो गुणे इत्यनेन पूर्वपरयोः पररूपम् एकादेशः, तर्हि तत्र देदीय एव पुनः आगच्छति. तत्र इदानीं शबन्तं जातं.
देदीय इति धातुः अस्ति, अनन्तरं शप् इत्यस्य विधानानन्तरं देदीय इति एव दृश्यते, किन्तु तदानीं किं धातुसंज्ञा नास्ति, यतो हि शप् इति यथा लिखा आसीत्, लिख इति यत्र श आगतः तदानीं लिख इति, अत्र यद्यपि तत्र श्रवणेन न तत्र भेदः न अवगम्यत, किन्तु भेदः अस्ति खलु. देदीय इति धातुः अधुनां शप् आगतः इति पूर्वपरयोः तत्र पररूपादेशः इति अधुगुणे इत्यनेन देदीय इति एव भाति, किन्तु तत्र शप् अस्ति तदानीम् इति कृत्वा धातुसंज्ञा नास्ति. अस्तु, अपि च न केवलं धातुसंज्ञा अपि तु
अभ्यस्तसंज्ञा अपि नास्ति.
किमर्थं?
तत्र इदानीं तत्र यत्र यकार उत्तरवर्ती अकारः यत् अस्ति तत्तु शबन्तमस्ति, तर्हि तत्र देदीय इति यत्र पूर्वमासीत् तत्र एव अभ्याससंज्ञा आसीत्. इदानीम् अङ्गं ते इति प्रत्ययं निमित्तीकृत्य अङ्गम् अस्ति देदीय.
तस्य च अभ्यस्तसंज्ञा नास्ति. अस्तु, समीचीनं.
महोदय, तत्र अभ्यस्त धातुसंज्ञा अपेक्षितं, धातुसंज्ञा अपेक्षिता वा?
भविष्यति एव धातुसंज्ञा तु, अभविष्यति एव. आवश्यकमिति तथा प्रायः नावश्यकं, तत्र उभे अभ्यस्तम् अत्र अभ्यस्त तत्र सूत्रं किं वदति? उभे अभ्यस्तम् इति सूत्रं पश्यतु.
तत्र द्वयमपि अभ्यस्तम् इति खलु,
द्वयोः, हा वदतु,
द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः. तर्हि इदानीं
धातुसंज्ञा न उक्तं, केवलम् अभ्यस्त अङ्गम् आवश्यकम्. इदानीम् अभ्यस्त अङ्गं नास्ति इति, तदेव पर्याप्तं खलु?
केवलं प्रदर्शनार्थं.
नाम साधारणतया तत्र यत्र अभ्यस्तमिति अभ्यस्तसंज्ञा अस्ति तत्र धातुसंज्ञा अस्ति, किन्तु तत्र अभ्यस्तसंज्ञायाः प्रदर्शनार्थं धातुसंज्ञा वक्तव्यमिति नास्ति. अस्तु, समीचीनम्.
अपि च तत्र अदभ्यस्तात् इति सूत्रे पञ्चमी विभक्तिः अस्ति. अदभ्यस्तात् अङ्गात् प्रत्यय अवयवस्य ज स्थाने अत्तादेशः, तर्हि तत्र पञ्चमी इत्युक्ते तस्मात् इति उत्तरस्य इति परिभाषासूत्रेण तत्र कार्यं साक्षात् अनन्तरं, यस्य पञ्चमी विभक्तिः अस्ति तस्मात् परं साक्षात् परं कार्यं भवति. इदानीम् अभ्यस्तसंज्ञात् अङ्गात् शप् अस्ति, न तु
अभ्यस्तसंज्ञकात् इति भवेत्,
अभ्यस्तसंज्ञकात् अङ्गात्. अतः अदभ्यस्तात् इत्यस्य प्रसक्तिः नास्ति. अतः तत्र
वस्तुतः क्षम्यतां, नास्ति चेत् अपि तत्व्र दोषः नास्ति. तत्र बहुव्रीहिसमासमिति कृत्वा दोषः नास्ति. क इति नितराम् आवश्यकता इति तु नास्ति, विकल्पेन अस्ति, किन्तु साधारणतया वदामः तावदेव. तत्र बुद्धमा तत्र अभ्यस्तसंज्ञा यस्य सः अभ्यस्तसंज्ञः इति अपि वक्तुं शक्यते, तद् दोषाय नास्ति. किन्तु साधारणतया सौलभ्यार्थं क इति प्रत्ययोजनं संयोजयामः. अस्तु, अग्रे.
अतः अदभ्यासात् इत्यस्य प्रसक्तिः नास्ति. तर्हि इदानीं प्रश्नः अस्ति आत्मनेपदेश्वनतः.
तावत् स्पष्टमस्ति? अनन्तकृष्ण महोदय, तत् स्पष्टमस्ति वा?
अस्तु महोदय. अभ्यस्तात् इति यत्र अभ्यस्त अङ्गम् अस्ति तत्र एव अर्थादेशः भवति, परन्तु तत्र अभ्यस्तसंज्ञा अपि एव नास्ति, सो कथं तस्य सूत्रस्य प्रसक्तिः इति भवति.
अत्र अभ्यस्तसंज्ञा अस्ति कुत्रचित् अत्र अथवा कुत्रापि नास्ति?
अभ्यस्तसंख्या तु अस्ति उभे अभ्यस्तमिथनेन द्वित्वं यथा यदा अभवत् तत्र तयोः अभ्यस्तसंख्या अस्ति, परन्तु शप् आगच्छति तत्र अकारः, यदा अकारः योज्यते तदानीम् अकारं मिलित्वा तत्र अभ्यस्तसंख्या इति नास्ति.
तर्हि कस्य भागस्य अत्र
अत्र अदभ्यस्तात् इति पञ्चम्यन्तम् इत्यस्मात् कारणात् ते इति क्षम्यताम् अन्ति इति जो इति जोन्तः इति तत्र जकारस्य पूर्वम् इति भवति चेत् तत्र जकारः योजते, जकारस्य जकारं दृष्ट्वा तस्य तत्र पञ्चमी इति भवति चेत् तत्र कप् तः अकारः आगच्छति, अतः तत्र अभ्यस्तसंज्ञा नास्ति तस्मिन् अवसरे.
तर्हि अभ्यस्तसंज्ञा कुत्र अस्ति?
अभ्यस्तसंज्ञा अकारस्य योजनात् पूर्वम् अस्ति, शपः योजनात् पूर्वम् अस्ति, परन्तु इदानीं शपः योजितः. यदा शपः योजितः तदानीम् अभ्यस्तसंज्ञा
अभ्यस्तसंज्ञा उच्चारयतु अत्र.
देदीय इत्यस्य अभ्यस्तसंज्ञा योजनात् पूर्वं.
हा हा हा, इति अस्ति, बहु समीचीनम्, बहु सम्यक् अस्ति. अस्तु, अग्रे के आगतवन्तः? यशवर्धनमहोदय अत्र अस्ति वा?
महोदय,
वेङ्कटेश महोदय. अन्य कोऽपि वा? शुकुवनम तत्र अस्ति वा? नास्ति. अस्तु, शुकुवनमस्ति नास्ति, शुकुवनं नास्ति. अस्तु, हेमभगिनी अन्तिमभागं पठतु कृपया.
आं महोदय, पठामि. तर्हि इदानीम् उपरितनाः सर्वे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः कर्तृकाश्च अस्यां दशायां
न अत्र वयं मध्ये स्मः. इदानीम् अभ्यस्तात् इति अस्य प्रसक्तिर्नास्ति इति तावत् जातमस्ति.
तर्हि इदानीम् अतः अदभ्यस्तात् इत्यस्य प्रसक्तिः नास्ति एव, तर्हि किमर्थं न आत्मनेपदेश्वनतः इत्यनेन झ स्थाने अत् आदेशः? आत्मनेपदेष्वनतः वक्ति यत् अनदन्त अङ्गात् आत्मनेपदसंज्ञकप्रत्ययस्य झकारस्य अतादेशः यङन्तदातुः आत्मनेपदी अस्ति किन्तु शबन्तम् अङ्गम् अनदन्तं न अपि तु अदन्तमेव अदन्तम् इति कृत्वा आत्मनेपदेष्वनतः इत्यस्य प्रसक्तिः नास्ति अतः अन्ततो गत्वा झोन्तः इत्यनेन झकारस्य स्थाने अन्तादेशः तदर्थं लटि अन्ते लोटि अन्तां लङ्गि अन्त इति भवति तर्हि इदानीम् आत्मनेपदेष्वनतः सूत्रेण झकारस्य स्थाने अतादेशः किमर्थं न भवति इति प्रश्नः यथा वयं पूर्वं दृष्टवन्तः जुहोत्यादिगणे तादृशम् अत्रापि किमर्थं न भवति इति परन्तु तत्र तु अनदन्त अङ्गम् अपेक्षितम् अत्र अस्माकं यङ् प्रत्ययः तु आत्मनेपदी तु अस्ति एव परन्तु यदा वयं विकरणप्रत्ययं योजयामः तर्हि तत्र अङ्गम् अदन्तं न भवति अनदन्तं क्षम्यताम् अनदन्तं न भवति देदीय इति अदन्तमेव अस्ति अतः अत्र तस्य प्रसक्तिः नास्ति एव अतः रूपाणि भवन्ति लटि साधारणतया झोन्तः इति सूत्रेण झकारस्य स्थाने अन्तादेशः तर्हि आत्मनेपद प्रत्ययान् योजयित्वा लट्लकारे अन्ते इति रूपं प्रथमपुरुषबहुवचने लोटि अन्ताम् इति अपि च लङ्गि अन्त इति
बहु समीचीनमस्ति वस्तुतः ज्योत्यादिगणे आत्मनिपद पदेष्वनतः इत्यस्य कार्यं भवति वा
तत्र अदभ्यस्तात् इति कारणेन भवति अतः
इति मन्ये यतोहि तत्र सर्वत्र तत्र विकरणप्रत्ययः न तिष्ठति एव अतः साक्षात् अदभ्यस्तात् इति सिद्ध्यति यत्र तत्र अभ्यस्तसंज्ञा नास्ति अपि च अङ्गमदन्तं नास्ति तत्र आत्मनिपदेषु अनतः अतीनेन वैशिष्ट्यं भवति अपरेषु गणेषु हा अपि च हा अस्तु समीचीनमस्ति तर्हि इदानीं द्रोणं किञ्चित् स्मारयति वा तत्र यङ्ग्लुक् प्रसङ्गे अत्र कीदृशी परिस्थितिः अस्ति अस्मिन् विषये
नाम तत्र किमर्थं नादभ्यस्तात् इत्यनेन
तत्र भवति न वा इति प्रश्नः
यङ् लुगन्तविषये अदभ्यस्तात् तत्र तु लुक् भवति लुक् भवति तदनन्तरम् अति प्रवृत्तिभ्यश्यप तत्र आरादिकः कार्यं भवति इति कृत्वा तत्र अदभ्यस्तात् इत्यस्य प्रसक्तिः भवति नास्ति
अदभ्यस्तात् इति तत्र भवति समीचीनमस्ति तत्र भवति अत्र न भवति बहु समीचीनमस्ति तर्हि अग्रे सरेम कर्तरि शाप् अथ गुणे इत्यादिकम् अस्माभिः दृष्टं गते सप्ताहे वेङ्कटेशमहोदय अत्र सारांशं किञ्चित् वदति वा कर्तरि शाप् अथ गुणे इत्यादिकं किं भवति अत्र
महोदय धातोः शप् प्रत्ययः इदानीं कर्तरि शप् किमर्थम् अत्र कार्यं करोति इत्युक्ते यदा वयं तिङन्तप्रत्ययं योजयामः तत्र तिङ्क्षित् सार्वधातुकम् इति प्रसङ्गं भवति अतः कर्तृत्वे शप् प्रत्ययः विधीयते इदानीं धातुतः शप् प्रत्ययः तदनन्तरं तिङ् प्रत्ययः अतः अत्र कर्तरि शप् कार्यं करोति
हा बहु समीचीनमस्ति नाम अत्र कर्तरि शप् इत्यस्मिन् गणसम्बद्धनिमित्तं नास्ति यथा तुदादिभ्यः इत्यादि तत्र दिवादिभ्यः इत्यादिकम् अस्ति अत्र तथा नास्ति भुआदिभ्यः शप् इति नास्ति किमपि कर्तरि शप् इति सामान्यमस्ति खलु गणसम्बद्धविधानमिति नास्ति. अस्तु, समीचीनमस्ति. अनन्तरम् अतो गुणे इति किं वदति?
अतो गुणे अत्र इदानीं यदा क्षम्यताम्, इदानीं यत्र प्रत्ययः महोदय, अत्र यदा अतो गुणे कार्यं न करोति इदानीं तत्र सवर्णदीर्घसन्धि अत्र आगत्य कार्यं कर्तुम् इच्छति, अतः पूर्वपरयोः एकं गुणं तिष्ठति, अतः तत्र अतो गुणे कार्यं करोति.
हा, सत्यं, समीचीनं. तत्र किं कार्यं?
तत्र पूर्वपरयोः एकवर्णं तिष्ठति, अतः तत्र पररूपं तिष्ठति. यदा वयं पश्यामः अग्रे देदीययोगः अन्त देदीयन्त इति भवति, देदीयन्ते क्षम्यताम्.
अत्र पररूपादेशः
पररूपादेशः भवति, अतः अतो गुणे अत्र आगत्य कार्यं करोति.
दीयते, अस्तु, समीचीनमस्ति. इति तावत् वयम् अधीतवन्तः गतसप्ताहे. इतः अग्रे सरेम. यङन्तप्रक्रिया अत्र द्रोणमादय पठति वा अग्रे?
तत्र यङन्तप्रक्रिया सर्वप्रथमं यङ् विधीयते, तदा सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा, यं प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं प्रसक्तं यथा सम्प्रसारणं नलोपः इत्यादिकं तत्सर्वं सर्वम् अधुना कर्तव्यं द्वित्वम् अभ्यासकार्यञ्च. इदानीं तत्र सोपानानि अत्र दत्तानि. प्रथमं तत्र यं प्रत्ययस्य विधानं, तदनन्तरं तत्र यं प्रत्ययस्य विधानानन्तरं यं प्रत्यय सनाद्य आदि अस्ति इति कृत्वा तत्र सनाद्यन्ता धातवः इत्यनेन तस्य सर्वस्य धातुसंज्ञा, पुनः तत्र यङ् निमित्तीकृत्य किमपि अङ्गकार्यं भवति कुतः इत्यत्र प्रत्यय अस्ति इति कृत्वा तत्र अङ्गकार्यं करणीयं, पुनः तदनन्तरं तत्र यङन्तस्य इदानीं द्वित्वा अभ्यासकार्यं च इत्येव अस्ति. तदनन्तरं इतोपि
आम्
तर्हि तत्र द्वित्वं तद् सूत्रमस्ति, द्वित्वविधायक विधायकं सूत्रं किम् अत्र इत्युक्ते तत्र संयम सनन्तस्य यमन्तस्य च धातु रणभ्यासस्य प्रथमस्यैकात् अवयवस्य द्वे स्तः अजादिस्तु द्वितीयस्य संसंयंसते वितरितरद्वन्द्वः संयमोः तयोः संयमोः संयमोः षष्ठ्यन्तम् एकपदमिदं सूत्रं लिति धातुरनभ्यासस्य इत्यस्मात् धातोः अनभ्यासस्य इत्यनयोः अनुवृत्तिः एकादो प्रथमस्य अगादिर्द्वितीयस्य इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं संयमोः धातोः अनभ्यासस्य एकादो द्वे प्रथमस्य अजादिद्वितीयस्य. तत् स्पष्टमेव अस्ति, तत्र षष्ठ्यन्तम् इति उक्तम् इदानीं, तत्र सप्तम्यन्तं नास्ति इति अत्र विशेषः. तर्हि संयमोः धातोः नाम तत्र सप्तम्यन्तं नास्ति इति कृत्वा इदानीं तत्र निमित्तं परतः भवति चेत् तत्र द्वितं भवति इति अर्थो नास्ति. षष्ठ्यन्तस्य अर्थः इदानीम् अनन्तरमेव दत्तम् इति मन्ये, तत्र विशेषः अर्थः अस्ति षष्ठ्यन्तस्य. तर्हि सनन्तस्य यङन्तस्य धातोः अनभ्यासस्य एकादश द्वे प्रथमस्य अजादि द्वितीयस्य नाम प्रथम एकादश समूहस्य द्वित्वं भवति, अजादि अस्ति चेत् द्वितीय एकादश समूहस्य द्वित्वम् इति अर्थः.
हा, बहु समीचीनमस्ति. अनभ्यासस्य इति किमर्थम् उक्तं
नाम तत्र पूर्वमेव अभ्यासः अस्ति चेत् तत्र लिट् इत्यादिकं पूर्वमेव तत्र अभ्यस्तः अस्ति चेत् पुनः न भवति इति अर्थः.
तदेव अस्ति, अवगच्छन्ति खलु. तत्र हेमा भगिनी स्पष्टं वा?
पुनः एकवारं
द्रोणमहोदय किञ्चित्
नाम तत्र संयङ्गः इत्यनेन तत्र इदानीं द्वित्वं विहितं, परन्तु एतत् सूत्रं वदति द्वित्वं तदा करणीयं यदा पूर्वमेव तत्र द्वित्वं न जातं धातोः. पूर्वमेव द्वित्वं पूर्वमेव विहितम् अस्ति चेत् यथा लिटि, लिट् धातोः पूर्वमेव तत्र द्वित्वम् अस्ति चेत् तत्र अभ्याससंज्ञा प्राप्नोति, तर्हि पूर्वमेव अभ्याससंज्ञा अस्ति चेत् तस्य द्वित्वं न भवेत् इति अर्थः.
उदाहरणं खलु यथा उवाच इति प्रसिद्धरूपम् अस्ति, उवाच उवाच इति लिट् तस्य तत्र तादृशं तादृश अस्तु महोदय वदतु यत्र द्वित्वं जातमस्ति पुनः. हा वदतु.
आं तत्र पुनः द्वित्वं जातमस्ति पुनः तत्र व्रीषार्थे एव तत्र लिटि नाम तत्र लिटि एव व्रीषार्थे वयं यङन्तरूपं साधयामश्चेत् किं भवति इत्युक्ते तत्र लिट् अपि अस्ति पुनः अस्माकं तत्र वृषार्थे यङ् प्रत्यये आगच्छति चेत् पुनः तत्र द्वित्वं करणीयं वा इति प्रश्नः उदेति. तदनन्तरं न करणीयम् इति अर्थः.
द्वित्वम् एकवारम् एक एव वारं भवति न तु द्विवारम्. यया रीत्या तत्र यथा निच् तत्र चुरादिगणे निच् अस्ति तस्य पुनः संयोजनं न भवति प्रेरणार्थे. अस्तु अग्रे श्रेम तर्हि.
अत्र उदाहरणार्थं सन् अन्त धातोः यङ् न भवति इति वक्तुं शक्नुमः. यदि प्रथमं सन्नन्तः तत्र द्वित्वम् अभवत् तदनन्तरं
तथैव भवति इति मन्ये.
आम् अस्तु समीचीनमस्ति. अग्रे गच्छेम तर्हि. अनन्तकृष्णमहोदय अग्रे पठति वा.
पठामि महोदय. आधिक्येन धातुः एका चेव तथा भवति चेत् समग्रधातोरेव द्वित्वं भवति. धातुः अनेका चेत् धातुः हलादिः चेत् प्रथमस्य एका भागस्य द्वित्वं भवति. धातुः अनेका चेत् धातुः अजादिः चेत् द्वितीयस्य एका भागस्य द्वित्वं भवति. तत्र द्वित्वं कुत्र भवति इति प्रश्नः. अधिकेन एकाच् धातवः एव सन्ति, तेषां तु एकाच् धातवः इत्यस्मात् कारणात् तेषां द्वित्वं भवति इति भवति. परन्तु यत्र अनेकाच् धातवः सन्ति तत्र तत्र विभजनद्वयं भवति. हलादिः चेत् प्रथमस्य एकाच् भागस्य द्वित्वं भवति. अजादिः चेत् द्वितीयस्य भागस्य द्वित्वं भवति इति.
यथा अग्रे
यथा भू य इति सन्यङ्गोः इत्यनेन द्वित्वं भू भू य इति अस्ति. भू इति एकाच् धातुः अतः भू भू य इति देयं यत् यत्र यङ् प्रत्ययं निमित्तीकृत्य द्वित्वम् इति वार्ता नास्ति. किमर्थं चेत् देयं यत् यङ् प्रत्ययं निमित्तीकृत्य द्वित्वम् इति वार्ता नास्ति. किमर्थं पठामि. किमर्थम् इत्यस्य बोधनार्थं यङन्तस्य एकम् उदाहरणं स्वीकुर्मः. अजादिधातुः स्वीक्रियताम्. अस्तु अष् य इति अस्ति. सन्यङ्गोः इत्यनेन अजादेः द्वितीयस्य द्वित्वम् अष् अष् य इति तत्र द्वितीयभागस्य द्वित्वं. द्वितीयभागः इत्युक्ते प्रथमभागस्य तत्र समापनं कुत्र कदा भवति इति यदा प्रथम तत्र कथं वक्तुं शक्यते प्रथमभागस्य इति? अकारः अस्ति, शु अस्ति, यकारः अपि अस्ति, अनन्तरम् अकारः अस्ति. सो ततः द्वितीय अच्वर्णस्य पूर्वं यः हल् वर्णः अस्ति तत् सः भागः द्वितीयभागः इति भवति वा?
अत्र क्रमेण द्रोणमहोदय किमुक्तमस्ति अस्माकं यङन्तप्रक्रिया स्मारयतु, अत्र उपरि दत्तं
महोदय. अत्र सर्वप्रथमं तत्र यङ् विधीयते, तदा तदनन्तरं सनाद्यन्ता धातवः इति धातुशून्य, तदनन्तरं तत्र यङ् प्रत्ययं निमित्तीकृते अङ्गकार्यं प्रसक्तं. परन्तु इदानीं तत्र संयोगः तत्र चतुर्थम् एव द्वित्वम् अभ्यासकार्यम् इदानीं अस्माकं तत्र अस्य इत्येव तत्र उदाहरणं खलु, तस्मिन्नेव विषये वक्तव्यं खलु. आम्, अस्य अस्ति. तर्हि तत्र संयोगः धातु अनभ्यासस्य एकासु द्वे प्रथमस्य अजादि द्वितीयस्य इति उक्तं. तर्हि अजादि अस्ति इति कृत्वा इदानीम् अजादेः द्वितीयस्य इति फलितार्थः. तर्हि अजादि अस्ति अस्य इति, तत्र संयोगः इत्यत्र सम्पूर्णस्य यङन्तस्य तत्र द्वित्वं भवति, नाम तत्र द्वित्वस्य विषयः पूर्णरूपेण यङन्तः, नाम अस्य इत्येव द्वित्वस्य विषयः. इदानीम् अस्य इति द्वितीयस्य विषयः अस्ति चेत् पुनः अजादि अस्ति इति कृत्वा द्वितीयस्य एकात् समुदायस्य एव द्वित्वं भवति. तर्हि द्वितीय एकात् समुदायकः इत्युक्ते तत्र य तदुत्तरवर्ती अकारः. तर्हि अतः द्वितीय एकात् समुदायः य इति कृत्वा अस् य इति द्वित्वं भवति.
नाम तत्र भूय अस्य अत्र अत्र धातुसंज्ञा कस्य भवति? यदा हि यङ् इति विधीयते तदा हि सनाद्यन्ता धातवः तेन धातुसंज्ञा भवति. भूय इत्यस्य धातुसंज्ञा, अस्य इत्यस्य धातुसंज्ञा, तस्य समुदाय तत्र सम्पूर्णरीत्या एतत् सर्वं द्रष्टव्यमस्ति. अस्य द्वित्वं क्रियते नाम भूय अस्य, तत्र हलादिः अस्ति चेत् अजादिः अस्ति चेत् तत्र भिन्नभागस्य द्वित्वं क्रियते तावदेव. अन्यत्र स्पष्टमस्ति वा?
तत्र भूय इत्यस्मिन् अवसरे इति धातुसंज्ञा अस्ति, द्वित्वकरणीयम् इति. तत्र भूय इत्यस्य द्वित्वं हलादिः इत्यस्मात् कारणात् प्रथम एकाच समुदायस्य भवति. एकाच समुदायः इत्युक्ते इति यत्र आगच्छति पर्यन्तं एकः अतः अकारः ऊकारः इति भू इति अस्य द्वित्वं भू भू य. परन्तु अस्य इत्यस्मिन् अवसरे प्रथम तत्र अजादिः इत्यस्मात् कारणात् द्वितीय एकाच समुदायस्य अन्वेषणं करणीयं. तत्र द्वितीय एकाच एकाच इति यकारः अस्ति, इ य अ इति, तस्य द्वित्वम् इत्यस्मात् कारणात् अशीय य इति तस्य द्वित्वम्.
क्षम्यतां महोदय, मम एकः प्रश्नः अस्ति. अत्र ऊर्नु इति धातुः अस्ति, तत्र ऊर्नु नु इति भवति, द्वयोः भेदः कः?
कयोः?
ऊर्नु इति धातुः अस्ति चेत् तत्र ऊ इति प्रथम एकाच् भागः, अनन्तरं तत्र रेपनकार उकारः.
ऊर्नु इति एकाच् अस्ति वा?
ऊर्नु अनेकाच् अस्ति, अत्रापि अनेकाच् एव, अश् य धातुः एकाच्, तर्हि द्वयोः भेदः कः अत्र? किमर्थं तत्र श पर्यन्तं वयं स्वीकुर्मः, अश् इति स्वीकुर्मः प्रथम एकाच् भागः,
न य स्वीकुर्मः खलु? अजादेर् द्वितीयस्य इत्यनेन य भागः द्वित्वं भवति, अश् य
किमर्थं तत्र शकारः
तत्र भवती विभजनं कर्तुम् इच्छति वा अ अपि च श्य इति वा
इति त्रयाणामपि किमर्थं प्रथम एकात् समुदायः अस्ति वा न इति प्रश्नः वा मया तथापि दृष्टं जनाः तथापि कुर्वन्ति परन्तु तत् करणे अपि एवमेव लभ्यते यत् रूपं लभ्यते तदेव रूपं लभ्यते नाम तत्र अस्य इति प्रथम एकात् कुर्मः चेत् तदनन्तरं य इति द्वितीय एकात् भवत्येव
द्वितीय एकाच् केवलम् अकारः नास्ति वा
न न न तथा न भवति तर्हि
हल् अपि भवेत् समुदायः इति एकाच् भागः
अस्तु
अत्र इतोपि किमपि वक्तुं शक्यते मातुः गृहे अत्र नाम विस्तृतरूपेण सा तु उक्तवती बहुवारं च इदानीं मनसि नास्ति किन्तु अत्र कुत्र आरभ्यते कुत्र शिष्यते इति पुनः दृष्ट्वा पुनः पृष्ट्वा वदामि अत्र कारणमस्ति कुत्र पर्यन्तं गच्छति कुत्र समाप्यते च
अस्तु महोदय
बहुवारं मया पृष्टम् अवगतं च विस्मृतं च अत्र लिखामि सामान्यतया किं करोमि अत्र यदा अस्मिन् देशे अस्मि तदानीं यत् किमपि अवगच्छामि तद् लिखामि किन्तु तस्याः गृहे यदा अस्मि तत्र तथा न भवति इति कृत्वा अस्तु अनन्तरं पृष्ट्वा वदामि तत्र अस्ति किमपि स्पष्टं अत्र किमस्ति य इति अत्र भिन्नबिन्दुः अस्ति किमिति महोदय वक्तुमिच्छति वा
न आम् ममपि सन्देहः अस्ति समीचीनः प्रश्नः स्पष्टम् एव आसीत् इति मम चिन्तनमासीत् परन्तु इदानीं सन्देहस्य विषये
अत्र तथा अस्ति पृष्ट्वा वदामि अस्मिन् सप्ताहे ऊर्णवती अग्रे दत्तमस्ति तत् किम् अस्तु विद्याभगिनी अग्रे पठतु कृपया अनेन स्पष्टम्
अनेन स्पष्टं भवति यत् यङ् प्रत्ययः द्वित्वकारस्य निमित्तं नास्ति या एव स्थानी न नाम स च य कार्यस्य स्थलम् अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमी विभक्तौ भवति लिटि धातोरनभ्यासस्य श्लौ चङि एषु लिटि श्लौ चङि इति सप्तम्यन्तानि किन्तु संयङ्गोः इत्यस्मिन् संयङ्गोः इति षष्ट्यन्तं पदं यतोहि तस्य एव द्वित्वं भवति यस्य अन्ते यङ् अस्ति तस्य द्वित्वं भवति यङ् तस्मिन् द्वित्वकार्ये अन्तर्भूतम् एव तर्हि अत्र संयङ्गोः इति सूत्रे संयङ्गोः इति षष्ट्यन्तं पदम् अस्ति तत्र यङ् प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति परन्तु यङ् प्रत्ययः एव स्थानी इत्युक्ते तदेव तत्र कार्यस्य स्थलम् अस्ति अपरेषु द्वित्वप्रसङ्गेषु यथा तत्र लिटि अपि च श्लौ चङि ते सर्वे तत्र सप्तम्यन्तानि तानि सर्वाणि सप्तम्यन्तानि पदानि परन्तु तत्र संयङ्गोः इति षष्ट्यन्तं पदं यत्र सप्तम्यन्तपदम् अस्ति तत्र प्रत्ययनिमित्तं भवति परन्तु यत्र षष्ट्यन्तं पदं तत्र स्थानी अतः तत्र यङ् इति प्रत्ययः स्थानी य इति स्थानी भवति तस्य एव द्वित्वं धातोः द्वित्वं भवति यस्य अन्ते यङ् अस्ति तस्य एव द्वित्वं तर्हि यङ् प्रत्ययः द्वित्वस्य अन्तर्भूतं द्वित्वकार्यस्य अन्तर्भूतम् एव
इति वैशिष्ट्यमस्ति अस्तु भगिनि धन्यवादः चन्द्रशेखर अत्र किं लिखितमस्ति अत्र उत्तरं प्राप्यते न वा इति पश्यामि अग्रे एकाचो द्वे इति किं लिखितमस्ति
एकाचो द्वे प्रथमस्य अधिकारसूत्रं प्रथमस्य एकाच् भागस्य द्वित्वं भवति जागृ जा जागृ पच् 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 इ षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवर्तते एकाचः षष्ट्यन्तं द्वे प्रथमान्तं प्रथमस्य षष्ट्यन्तं त्रिपदमितं सूत्रं स्वयं सम्पूर्णं प्रथमस्य एकाचः द्वे इदानीं तत्र प्रथमस्य अत्र प्रथमस्य एकाच् भागस्य अत्र भागस्य इत्यस्य एव अस्माकं भ्रमः आसीत्. तत्र जागृ इत्यस्य
नाम अत्र किमर्थं जाग् इति न स्यात्, किमर्थं जाति एव अस्ति इति अग्रिमं पठतु. तत्र कश्चन भेदः भवति न वा इति पश्येम.
अजादेर्द्वितीयस्य अधिकारसूत्रम् अजादिधातोः द्वितीयस्य एकाच् भागस्य द्वित्वं भवति. ऊर्णु इत्यस्य ऊर्णु नु षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रपर्यन्तं सर्वत्र अनुवर्तते. अजादेः षष्ट्यन्तं द्वितीयस्य षष्ट्यन्तं द्विपदमिदं सूत्रं स्वयं सम्पूर्णम्. अत्रापि ऊर्णु इत्यस्य नु एव द्वितीयभागम् इति स्वीक्रियते. अत्रापि द्वितीयभागस्य इत्यस्य इति स्पष्टता नास्ति इति मन्ये. ऊर् अपि च नु इति भागद्वयं क्रियते. नु इत्यस्य द्वित्वं
नाम हल् 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 वर्णानां तत्र का गतिः इति प्रष्टव्यमस्ति. अस्तु अग्रे किमस्ति?
नान्द्रासंयोगादयः. नन्द्राः संयोगादयः. अचः पराः संयोगादयः नदराः द्विर्न भवन्ति. नकारश्च दकारश्च रेपश्च तेषाम् इतरेतरद्वन्द्वः न्द्राः. संयोगस्य आदयः संयोगादयः षष्टितत्पुरुषः न अव्ययपदम्. न्द्राः प्रथमान्तं संयोगादयः प्रथमान्तं त्रिपदमिदं सूत्रम्. अजादे द्वितीयस्य इत्यस्मात् अजादेः इत्यस्य अनुवृत्तिः. अच् च असौ आदिश्च अजादिः तस्मात् अजादेः कर्मधारयः. एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अजादेः संयोगादयः न्द्राः न द्वेः. इत्युक्ते तत्र नकार दकारश्च नकारश्च दकारश्च रेपश्च तेषां संयोगः भवति चेत् अजादि एकनिमिषं अत्र अजादिधातुः अस्ति चेत् अपि च तत्र नकारदकाररेपस्य संयोगः अस्ति चेत् तस्य द्वित्वं न भवति इति. उदाहरणम् अत्र ऊर्णु इति अस्ति. अत्र रेफणकारस्य संयोगः अस्ति. तदर्थं रेफ ऊर्णु इत्यस्य किमर्थं ऋणु इत्यस्य द्वित्वं न अभवत् इत्यस्य समाधानम् अस्ति अत्र. तदर्थं नकारः एव तिष्ठति द्वित्वे. रेपः न भवति
अत्र. केवलम् ऊकारस्य द्वित्वं न भवति इति अत्र कारणं न उक्तम्
अत्र. परन्तु तत् अजादिधातुः अस्ति. तदर्थं द्वितीयभागस्य एव भवति द्वित्वं. तत्तु स्पष्टं.
द्वितीयभागः वदतु अत्र. ऊर्णु अत्र तत्र उकारः द्वितीय उकारः यः उकारः स्वः तस्य एव द्वित्वम् इति किमर्थं न जातम् इति न उक्तं.
न उक्तं. परन्तु तत्र किञ्चित् क्रमस्ति. परन्तु यदि वयं द्वितीयभागस्य रेफणकार उकार संयोग रेपनकार उकार समूहः स्वीकुर्मः तत्र रेपः न तिष्ठति द्वित्वे नन्द्रासंयोगादयः इत्यनेन.
सत्यं. रेफस्य द्वित्वं न भवति. नकारस्य द्वित्वं किमर्थं भवति इति न उक्तं. किन्तु प्रायः यथा पर्णभगिनी वदति स्म समुदायः वर्णसमुदायः किमपि तादृशस्वर्ण तत्र विज्ञानमिति किमपि स्यात्. पृच्छामि, पश्यामः माताजि किं वदति इति. अस्तु अत्र
प्रायः महोदय तत्र अश् इति एकाच् धातुः परन्तु ऊर्णु इति अनेकाच् धातुः इति कृत्वा वा एकाच् धातुः अस्ति
न परन्तु अश्य इति एव तत्र दत्तं खलु. तत्रापि
अश् इति प्रथम एकाच् भागः एकाच् धातुः इति कृत्वा प्रथम एकाच् भागः
अजादिः इति कृत्वा द्वितीय एकाच् भागस्य द्वित्वम् इति कृत्वा या इति इत्यस्य द्वित्वम्
अत्र हल् वर्णानां का गतिः इति पुनः तत्र न स्पष्टमस्ति किमर्थं श्य इत्यस्य द्वित्वं न भवति श्य श्य
तत्र एकाच्छस्ति इति कृत्वा एकाच्छस्ति इति
श्यस्य भवति चेत् पुनः अलादिशेषः इति वदामः चेत् यकार एव गच्छति पुनः
आमां
तत् द्रष्टव्यं किम् अस्ति इति
परन्तु अश्य इत्यस्मिन् अवसरे एकाच् इति कथं वक्तुं शक्यते अश् इति अकारः अन्ते अपि अस्ति खलु यकारस्य अन्ते अकारः अस्ति खलु
यङ्गन्तः सर्वे अनेकाचः एव
एकाच् भाग् नाम एकाच् भाग् इत्यस्य कथं विभजनं भवति इति स्पष्टीकरणमस्ति खलु एकाच् भागः एकाच् भागः इति पृच्छामि एकाच् भागः अस्तु अग्रे अग्रे पश्येम तर्हि पर्णभरि अग्रे
आं महोदय नन्द्राः संयोगादयः अचः पराः संयोगादयः
जातमस्ति तत्तु जातमस्ति उन्द्योगः उदाहरणम् आसीत्
हा उन्द्योगः सन् इत्यस्मिन् सन्दर्भे अपि उन्दिश इति अस्ति अजादिः अस्ति अनेकाचः अस्ति अस्मिन् सन्दर्भे उन्दिश दिश इत्यस्य दिश इति अनेकाच् भागः अस्ति अतः दिश इति किमर्थं स्वीकुर्मः
तत्र नकारः अस्ति अपि अस्ति तत्र नकारः गच्छति महोदय
अत्र मुद्रणदोषः अस्ति वा उन्दिश दिश इति उक्तम् उन्दि दिश इति वक्तव्यं वा
हा 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 न एकनिमेषः उन्दि न उन् उन्दयोगः सन् उन्दिश अत्र ऊन्योगः ऊन्योगः दिश इति भवेत् न
उन्द सन् पुनः तत्र इडागमः उन्दिश सम्यक् एव भाति परन्तु तत्र भित्वा अनन्तरम् उन्दिश दिश इति तत्र दत्तमस्ति
उन्दिश श इति भवति वा इति प्रश्नः खलु महोदय द्रोणमहोदय
उन्दिशः तत्तु सम्यक् एव इति भाति कुतः इति चेत् तत्र आर्धधातुकश्चित् बलादेः इत्यनेन इकारस्य आगमः तर्हि उन्दिश इति तत् तत् सम्यक् एव इति भाति परन्तु तत्र द्वित्वा अनन्तरम् उन्दिश दिश इति यत् दत्तमस्ति तत्र मुद्रणदोषः इति मन्ये
तत्रैव वदन्नस्मि तत्रैव वदन्नस्मि
अस्तु
हा हा नाम अत्र अजादिद्वितीयस्य इति न अत्र कः दोषः द्वितीय अत्र द्वितीयस्य द्वित्वमस्ति
द्वितीयभागः इत्युक्ते अत्र अजादिर्द्वितीयस्य अजादिर्द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति अत्र
सत्य अत्र सत्यमेव इति भाति मम दोषः कः अत्र उन्दिश इत्यस्य दिश इति भागस्य द्वित्वं किमर्थं न स्यात् दिश इति तर्हि किं स्यात् श इति एव
उन्दि इत्यस्य द्वित्वं परन्तु नकारस्य द्वित्वं नवति न भवति इति कृत्वा केवलं ति इत्यस्य एव द्वित्वं
न न उन्दि इत्यस्य द्वित्वं कथं भवति अजादे द्वितीयस्य इत्यनेन
भागः अस्ति
श इति धातोः भागः
संयोगः संयोगः इति तथा न भवति अत्र प्रायः सत्यमेव उक्तं लिखितमस्ति उन्दिश दिश अत्र एकाच् भागः इति वक्तुम् इच्छामः चेत् तत्र श इति एव इति वा
प्रथम एकाच् अस्ति उन् द्वितीय एकाच् अस्ति इन्दि तृतीय एकाच् अस्ति श
ओ तृतीय
द्वितीय
द्वितीय एकाच् भागः अस्ति डि
अतः डि एव डि डि इत्यस्य एव द्वित्वं नकारस्य द्वित्वं न भवति नन्द्रासंयोगादित्य तर्हि
उन्दिदिश
इति आम् उन्दिदिश
हा हा तत्तु भवितुमर्हति तत् मया द्रष्टव्यमस्ति उन्दिदिश इति भवितुमर्हति एकाच् भागस्य इति सत्यमिति भाति
किन्तु किमर्थम् उन्दिदिश न तु उन्दिश दि यतोहि संयङ्गोः इत्यनेन यङ् निमित्तीकृत्य द्वित्वं न भवति पूर्वं यङ् स्वीकृत्य एव तस्य द्वित्वम् अतः उन्दिश सन् योजनानन्तरम् उन्दिश इत्यस्य उन्दिश दि इति न भवति वा
न न तत्र कुतः इति चेत् पुनः द्वितीय एकात् भागस्य एव भवति
अतः उन्दिदिश
तत्र अस्माभिः विभजनं केवलं भागद्वयम् इति एव चिन्तनीयम्
अत्र भागत्रयं
तत्र त्रयम् इति तस्य आवश्यकता अपि नास्ति इति चिन्तयामि द्वितीयभागः इत्युक्ते द्वितीयसमुदायात् अनन्तरं किमपि भवति सर्वम् एकं समुदायम् इति भवति इति अहं चिन्तयामि
सत्यं सत्यं द्वितीयं त्यजामः द्वितीयमेव स्वीकुर्मः
हा तद् भवति चेत् अन्यत् सर्वं भागं द्वितीयभागम् अस्ति तत् उन्दिश दिशा तत्
एकात् समूह इत्युक्ते तत्र अत्र तत्र त्रयः अतः सन्ति खलु
पृच्छामि अत्र एकाच् अजादेः द्वितीयस्य एकाचः द्वे इति दत्तमस्ति तर्हि एकाच् इति एव भागः स्वीकरणीयः इति भाति
तथैव चिन्तनं महोदय
किन्तु मया यद् लिखितमस्ति तत्तु केवलं तत्र हवा इत्यस्मात् न स्वीकृतमस्ति कुत्र तत्र कुत्रचित् दृष्टमेव मया किन्तु द्रष्टव्यम् अस्तु
तथा भवति चेत् अश्य इत्यस्मिन् अवसरे श्य इत्यस्य द्वित्वं भवति खलु
हा तस्य तदेव पूर्वम्
अत्र तत्र त्रयः स्वराः सन्ति इति प्रश्नः अत्र खलु त्रयः स्वराः सन्ति उ इ अ तर्हि त्रयः एकाच् भागाः सन्ति इति कृत्वा एकाच् द्वितीयस्य एकाच् भागस्य द्वित्वम् एव भवति इति चेत् यथा द्रोणमहोदय उक्तं तत्र डि इत्यस्य एव तत्र ऊन् डि श इति त्रयः भागाः सन्ति एकाच उन् डि श द्वितीयभागः अस्ति डि तर्हि द्वितीयभागस्य द्वित्वमेव भवति चेत् उन् डि डि श इति भवेत् तत् दृष्ट्वा वदामि अनन्तरं
मम अवगमनं अत्र उन्दिश इत्यस्य उ दि ष इति सर्वदा भागस्य अन्ते स्वरः पूर्व सर्वे पूर्व हल्वर्णाः इति स्वीकर्तव्यम् इति मन्ये अहम् उ नकारदकार इकारः अपि च षकार तत्तु एकः भागः अपि च ष इति एकः भागः इति
तत्तु भवितुम् अर्हति केवलम् अनेन सूत्रेण नकारस्य द्वित्वं न भवति इति नाम अन्ते स्वरः भवेत्
अन्ते स्वरः तदेव भागः भागस्य लक्षणं तु अन्ते स्वरः इति
अस्तु एतत् सर्वं द्रष्टव्यमस्ति मया परिभाषा किमपि स्यात् अस्तु अग्रे गच्छेम एतत् सर्वं पुनस्मरणमेव भविष्यति इति अहं चिन्तितवान् किन्तु चिन्तनं समीचीनमेव पश्येम किमस्ति हल् वर्णाः पृष्टव्यमस्ति हल् वर्णाः भागः कः अर्थः अस्ति एतत् सर्वम् अस्तु अग्रे गच्छेम वेङ्कटेशमहोदय अग्रे
महोदय अभ्यासः अभ्यस्तम् इति द्वे संज्ञे पूर्वोऽभ्यासः द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः पूर्वः प्रथमान्तम् अभ्यासः प्रथमान्तं द्विपदमिदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं पूर्वः अभ्यासः द्वयोः सूत्रं सूत्रं वदति यदा द्वित्वानन्तरं भवति उच्चारणानन्तरं जातं द्वित्वं भवति तत्र प्रथमभागस्य नाम भवति अभ्यासः किमर्थम् इत्युक्ते पूर्वमस्ति अतः पूर्वोभ्यासः इति
हा द्वयोः मध्ये यः भागः पूर्वः अस्ति तस्य अभ्याससंज्ञा अस्ति अस्तु अग्रे
उभे अभ्यस्तं द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञको भवति उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदमिदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तं द्वयोः समुदायः यदा द्वित्वानन्तरं यदा द्वयोः समुदायः भवति तत् अभ्यस्तसंज्ञकः इति सूत्रं वदति अत्र
समीचीनमस्ति अग्रे
अग्रे अभ्यासकार्यं द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे तानि च अभ्यासकार्यम् इति उच्यते यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यं विशेषा अभ्यासकार्यम् इदानीम् अभ्यासस्य द्वित्वानन्तरं किं किं कार्यं भवति अभ्यासस्य इति प्रसङ्गः तत्र अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं तदनन्तरं सामान्यकार्यं विशेषकार्यम् इति भवति अभ्यासस्य
हा अत्र सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं च सामान्य अभ्यासकार्यं नाम
अग्रे पठामि वा महोदय
हा अस्तु पठतु
सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति लिटि सनि यङि श्लौ चङि च विशेषाभ्यासकार्यं भवति द्वित्वं सम्बद्ध प्रत्ययम् अधिकृत्य यथा लिटि विशेषाण विशेषाभ्यासकार्यं पुनः श्लौ पृथक्तयाः पुनः सनि यङि चङि च अत्र सामान्य अभ्यासकार्याणि प्रदर्शयन्ते ततः अग्रे यथा स्थानं यङ्लुक् विशिष्टानि अभ्यासकार्याणि प्रदर्श्यन्ते
यङ् इति परिवर्तनीयमस्ति अग्रे
यङ् इति अत्र सन्ति प्रमुखसामान्य अभ्यासकार्याणि हलादिः शेषः षर्पूर्वाः खयः ह्रस्वः उरत् उहोश्चुः अभ्यासे चर्चा एतत् सूत्राणि सन्ति सामान्य अभ्यासकार्याणि
सामान्यकार्याणि किमर्थमुक्तं
तत्र प्रथमभागस्य अभ्यासस्य प्रथमभागस्य कार्यम् एव भवति अत्र सामान्य अभ्यासस्य तत्र यत्र
सामान्यमिति किमर्थमुक्तम् सामान्यम् अपर्णा भगिनी सहायं करोतु कृपया
हा अत्र विशेष अभ्यासकार्याणि अपि भवन्ति यथा निमित्तीकृत्य इत्युक्ते अस्मिन् सन्दर्भे यङ् निमित्तीकृत्य दीर्घोकितः इति सूत्रमेकमस्ति यत्र अकित् अभ्यासस्य दीर्घः भवति किन्तु तत् तत् कार्यं भवति केवलं यत्र यङ् अथवा यङ् लुक् विषये एव अतः विशेष अभ्यासकार्याणि भवन्ति इति कारणेन सामान्य अभ्यासकार्याणि इति दत्तमस्ति
पृथक्तया नाम सामान्यमिति युक्तं किम्
सामान्यम् इत्युक्ते अत्र अभ्यासस्य यथा हलादिशेषः ह्रस्वः
सामान्यम्
यत्र द्वित्वं भवति पूर्वोभ्यासः हा यत्र यत्र द्वित्वं भवति यत्र यत्र अभ्यासः पूर्वोभ्यासः इत्यनेन अभ्याससंज्ञक अस्ति भागः तस्मिन् सर्वे सामान्य अभ्यासकार्याणि सम्भवन्ति
हा नाम तत्र कुत्र कुत्र द्वित्वं भवति लिटि सनि यङि श्लौ चङि इति वेङ्कटेशः तत्र एषु स्थलेषु सर्वत्र यत्र यत्र तत्र द्वित्वं भवति तत्र अभ्याससंज्ञा अभ्यस्तसंज्ञा इति च भवति तत्र सामान्याधिकारि अभ्यासकार्याणि इति सर्वत्र भवति एषु सर्वेषु स्थलेषु केषु लिटि सनि यङि श्लौ चङि एषु एषु स्थलेषु किन्तु विशेष अभ्यासकार्यं तत्र दीर्घकृत इत्यादिकं तत्र केवलम् एकस्मिन् स्थले एकं प्रत्ययं निमित्तीकृत्य इत्यादिकं भवति लिति एव भवति सनि एव भवति श्लौ एव भवति इति विशिष्टसामान्य अभ्यासकार्ये खलु अस्तु तर्हि अत्र वयम् अधीतवन्तः हलादिशेषः षर्पूर्वाः खयः ह्रस्वः उरद् कुश्चुः अभ्यासे चर्चा इति एतत् सर्वं जानीमः खलु पुनः दर्शनस्य आवश्यकता न स्यात् इति मन्ये अत्र स्थापितमस्ति ये न जानन्ति तेषां कृते वयं तु जानीमः खलु पुनः द्रष्टव्यमस्ति वा सर् जानीमः त्यक्त्वा अग्रे गच्छेम एतत् सर्वं वयं दृष्टवन्तः हा इति यङि सामान्यभ्यासकार्यं समाप्तम् इति अत्र विशिष्टाभ्यासकार्यं यथास्थानम् अग्रे प्रदर्श्यते इति अस्ति इतः अग्रे सरेम अनन्तकृष्णमहोदय अग्रे
यङ् प्रत्ययस्य स्वभावः
इतः आरभ्यते विशिष्ट
इति यङि सामान्यम् अभ्यासकार्यं समाप्तं विशिष्टकार्य विशिष्ट विशिष्टाभ्यासकार्यं यथास्थानम् अग्रे प्रदर्श्यते अस्तु इतः आरभ्यते विशिष्ट यङन्तप्रक्रिया हलादिधातूनां यङन्तरूपं भवति तेषां च वर्गीकरणम् एतादृशं करणीयम् आकारान्त एजन्ताः च धातवः इकारान्ताः ईकारान्ताः च धातवः उकारान्तः ऊकारान्ताः च धातवः ऋकारान्ताः धातवः ऋकारान्तः धातवः सामान्यहलन्तदातवः अदुपदाः धातवः इदुपदाः धातवः उदुपदाः धातवः ऋदुपदाः धातवः सम्प्रसारणीनः धातवः आनीदितः धातवः यत्र यदा यदा पूर्वम् अस्माभिः दृष्टं तादृशम् अत्रापि विशिष्टाभ्यासकार्यम् इति तत्र वर्गीकरणं भवति आकारान्तानाम् ईकारान्तानाम् उकारान्तानाम् इति अन्तं दृष्ट्वा कार्यं भवति
समीचीनं तर्हि एतादृश विभजनं कुत्र कुत्र पूर्वमपि अस्माभिः दृष्टं किन्तु कुत्र कुत्र भवति कुत्र च न भवति नाम अत्र 2000 दातवः तद् अधिकृत्य नूतनदातवः सम्पादिताः सन्ति इति अस्य आधारेण ततः अग्रे यदा गच्छामः एतादृशम् एव वर्गीकरणमस्ति न तु अन्यादृशम् इति कुत्र कुत्र एतादृशमस्ति
यत्र अर्धधातुकप्रकरणे
अनदन्तेषु
हेमा भगिनी वदतु
अनदन्तेषु यत्र अदन्तः नास्ति अन्ते तर्हि तत्र तत्र वयम् एतादृशं दृष्टवन्तः विभजनम्
अनदन्तेषु अपर्णा भगिनी वदतु
यत्र सार्वधातुकप्रक्रियायाम् अत्र गणविभागः अस्ति धातुषु किन्तु आर्धधातुकप्रकरणे तादृशवर्गीकरणं नास्ति अतः सर्वे धातवः आकारान्ताः वा अथवा इकारान्तः एतत् वर्गीकरणमस्ति आर्धातुकप्रकरणे यत्र निजन्त निजन्तप्रक्रिया पूर्वम् अधीतवन्तः वयं तस्मिन् सन्दर्भे अपि एतादृशवर्गीकरणम् अस्ति यङ्लुकि अपि
यङि यङ्लुकि यत्र कुत्रापि लिटि आर्धदातकप्रकरणं यत्र यत्र आदि सनन्तप्रक्रिया यत्र यत्र आर्धदातकप्रकरणमस्ति आर्धदातकप्रक्रिया अस्ति इति वक्तव्यमस्ति तत्र तत्र आर्धदातकप्रक्रिया अनन्तकृष्णः बुद्धं वा किमर्थं तत्र
अवगतं महोदय
किमर्थं तथा
सार्वधातुकप्रकरणे तत्र तु विकरणप्रत्ययस्य आगमनेन तदनु विभजनं भवति खलु यत्र इत्वं भवति तादृशं विभजनं तत्र भवति परन्तु तत्र तु तत्रापि तथा वक्तुं न शक्यम् अस्ति किमर्थं चेत् कदाचित् तत्रापि सर्वत्र अकारः अन्ते इति न श्रूयते खलु सो ततः तथापि वक्तुम् अशक्यम् इति मम मनसि भाति
नाम यथा यथा इदुपदधातुः इदुपदधातुः यथा लिक् लिखिति धातुः इदुपदः सर्वे तत्र नाम लट्लकारे सर्वे सर्वेषाम् इदुपदानां धातूनां कार्यं समानम् अस्ति वा इति प्रश्नः नाम उपदायां ह्रस्व इकारः अस्ति चेत् तत्र सर्वेषां तत्र 2000 धातवः सन्ति धातुपाठे तत्र यावन्तः इदुपददातवः सन्ति तेषां सर्वेषां लट्लकारे कार्यं समानं वा
न तत्र सामान्यं शप् विहितमस्ति अनन्तरं लिक् इत्यस्मिन् षष्ठगण तत्र षष्ठगणे ष इति एव विकरणप्रत्ययः भवति तदानीं तत्र पित्वं नास्ति इत्यस्मात् कारणात् गुणः न भवेत् उपादायः इति तत्र पुगन्धलघु उपदस्य इत्यनेन उपादायः गुणः न भवति इति अस्ति खलु तत्र पित्वं अस्ति चेत् पित्वम् अनुसृत्य गुणः भवति पित्वं यत्र न भवति तत्र न गुणः भवति इति योजनं भवति परन्तु सो ततः सर्वत्र उपादायाः गुणः भवति इति नास्ति इत्यस्मात् कारणात् तादृश एतादृशविभजनं तत्र न भवति
हा बहु समीचीनमस्ति नाम उदाहरणार्थं उदाहरणार्थं एक द्वादिगणे कश्चन धातुः अस्ति चित् चित् इति धातुः चित् योगः शप् योगः ति तत्र लट्कारे किम् अस्ति
चित् शप् चित् तत्र गुणः भवति चे चे चायति इति भवति
तकारान्तदातुः अस्ति चित्
ओ क्षम्यतां चित् अति चेतति इति भवति वा
हा चेतति इति रूपमस्ति लट्लकारे इदानीं छित् धातुः छित् धातुः भुवादिगणे अस्ति लिक् धातुः तुदादिगणे अस्ति छित् छित् धातुः यदा यदि तुदादिगणे स्यात् तस्य रूपं किम् अभविष्यत्
लिखति इति न भवति लिखति इति एव भवति इति
छित् छित् धातुः यदि तुदादिगणे स्यात्
छित् धातुः तुदादिगणे भवति चेत् छितति इति भवति
छितति छितति न तु न तु चेतति अपि च लिखति अत्र तत्र भवति चेत् लिखति इति भवति स्म अतः प्रथमतया गणम् आधारीकृत्य वर्गीकरणं कृतमस्ति तत्र सार्वधातुकप्रकारे सार्वधातुकप्रक्रियायां आदुदातुप्रक्रियायां यावन्तः इदुपदः दातवः सन्ति तेषां सर्वेषां कार्यं समानं न भिद्यते.
व्यवहारः नास्ति इत्यस्मात् कारणात् तत्र समानमस्ति.
हा इति कृत्वा मातुः चिन्तनम् अत्र अन्यत्र न लभ्यते. एतत् सर्वं केवलं मातुः चिन्तनमस्ति, नाम पाणिनेः सूत्राणि दृष्ट्वा एव ताः उक्तवन्तः यत् अत्र तथा भवेत्. इदानीं सार्वजातकप्रक्रियायां प्रथमतया गणमनुसृत्य वर्गीकरणमस्ति, अनन्तरं तदन्तर्भावे भुआदिगणस्य मध्ये तत्र अन्तः गच्छामः चेत् पुनः एतादृशवर्गीकरणमस्ति, नाम इदुबदाः, उदुबदाः, ऋदुबदाः, आकारान्तः, ऋकारान्तः, इकारान्तः, उकारान्तः, एतत् सर्वं भुआदिगणे अस्ति. किन्तु एता यत्र इकारान्तः, उकारान्तः, ऋकारः इति वर्गीकरणम् अस्ति भुआदिगणे अस्ति, तद् भिन्नमस्ति तुदादिगणे अस्ति यत् इकारान्त उकारान्त. तत्र विभजनं, तत्र उपविभजनम् इति वक्तुं शक्नुमः. प्रथमतया भुआदिगणः, अनन्तरं तुदादिगणः, तस्य अन्तः गत्वा एतत् सर्वम् अस्ति, आकारान्त, इकारान्त, उकारान्त, ऋकारान्त. किन्तु आददातुकप्रक्रियायां साक्षात् एतादृशविभजनमस्ति, ततः उपरि किमपि विभजनं नास्ति. ऋकारान्तदातवः यावन्तः सन्ति यङ्लुकि सनन्त तत्र लिट्लकारे सनन्तप्रक्रियायां यत्र कुत्रापि भवति आर्द्रप्रक्रिया, तत् सर्वं समानमस्ति इति स्पष्टं स्यात्. अस्तु, हा समीचीनमस्ति. अग्रे किञ्चित् समयः अस्ति तत्र, अग्रे हेमा भगिनी अग्रे.
आं महोदय, यङ् प्रत्ययस्य स्वभावः, यङ् प्रत्ययः धातुभ्यः विधीयते किञ्चित् भिन्नः च इति कृत्वा आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. यङ् प्रत्ययः तु धातुतः भवति, तिङ् नास्ति अपि च षित् नास्ति इति कृत्वा तत् आर्धधातुकप्रत्ययः अस्ति, तस्य सूत्रमस्ति आर्धधातुकं शेषः इत्यनेन तत्र आर्धधातुकसंज्ञां प्राप्नोति. सूत्रम् आर्धधातुकं शेषः धातोः विहितः तिंशित् भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति. अनुवृत्तिसहितसूत्रमस्ति धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्. यङ् प्रत्ययः न केवलम् आर्धधातुकसंज्ञकः अपि तु ङित् अपि अस्ति, अतः यङि परे यावत् कार्यं ङित् आर्धधातुकसंज्ञकप्रत्यये परे भवति तत्सर्वं यङ् प्रक्रियायां भवति. अत्र यङ् तु अर्धधातुकः अस्ति अपि च ङित् अस्ति, अतः ङित् कृते वयं पूर्वमपि दृष्टवन्तः ये ये कार्याणि तत्र भवन्ति तानि सर्वाणि अत्रापि भवन्ति. इत्युक्ते अत्र अनिदिग्धातवः अस्ति चेत् द्रष्टव्यम्, अपि च सम्प्रसारणकार्यम् अस्ति चेत् करणीयं. तदनन्तरं ङित् अस्ति इति कृत्वा तत्र गुणनिषेधः अपि भवति. तादृशकार्याणि अत्रापि अर्हन्ति.
बहु समीचीनमस्ति. अस्तु, द्रोणमहोदय अग्रे.
आम्, तत्र आकारान्त एजन्ताः च धातवः इति आगच्छति खलु महोदय?
किमिति?
तत्र आकारान्ताः एजन्ताः च धातवः इति आरभ्य खलु?
हा सत्यं, हा सत्यम्.
गित्वा अभ्यासकार्यानन्तरं दीर्घो अकितः इत्यनेन अकित अभ्यासस्य दीर्घादेशो भवति यमि परे. अत्र विशेष अभ्यासकार्यमस्ति, तर्हि यमि परे एव अभ्यासस्य दीर्घादेशो भवति इति अर्थः. इदानीं तत्र उदाहरणमस्ति ला योग यङ्, तत्र पुनः तत्र ला योगः यं लालाय, तत्र लालाय इति तत्र भवति प्रथमं तत्र दीर्घ अकितः अभ्यासस्य ला इत्यस्य स्थाने तत्र न तत्र ला इत्यस्य स्थाने ह्रस्वस्य इत्यनेन ह्रस्व आदेशः प्रथमं भवति, ह्रस्व आदेश अनन्तरं कुर्मः पूर्व अनन्तरं पूर्व पुनः दीर्घ अकितः इत्यनेन पुनः दीर्घ एव विधीयते इति विशेषः। तर्हि अकित अभ्यासस्य दीर्घादेशः लालाय तत्र दीर्घ अकित इत्यनेन लालाय तदनन्तरं कर्तरि शप् इत्यनेन लालाय योग शप् इति भवति लालाय योग शप् ते अतुगुणे इत्यनेन लालाय सप् इत्यस्य पररूपे कृते लालायते इत्येव रूपं भवति।
अत्र अत्र पुनः स्मारयतु कृपया आरम्भे तत्र कस्य भागस्य द्वित्वम् इत्यादिकम्।
आमाम् अत्र लायोग यम् अस्ति प्रथमं तत्र यम् प्रत्ययस्य विधानानन्तरं तत्र संयमोः इति न लाय इति धातुसंज्ञा कस्य इत्युक्ते लाय इति समुदायस्य धातुसंज्ञा। तर्हि धातुसंज्ञा प्राप्त्यनन्तरं संयमोः इत्यनेन तस्य लाय इति समुदायस्य एव तत्र द्वित्वं विहितम्। इदानीं लाय इत्यत्र कस्य वा द्वित्वं भवति इति प्रश्ने सति एकातो द्वे प्रथमस्य अजादेर्द्वितीयस्य इति उक्तं। तर्हि अत्र प्रथम एकात् समुदायस्य एव द्वित्वं भवति इति अर्थः। तर्हि अत्र प्रथम एकात् समुदायकः इत्युक्ते तत्र ला एव प्रथम एकात् समुदाय अतः प्रथम एकात् समुदायस्य एव द्वित्वं तर्हि ला लाय इति भवति। ह्रस्वस्य इत्यनेन तत्र अभ्यासस्य न पूर्वो अभ्यासः तर्हि प्रथम ला इति अस्ति तस्य अभ्याससंज्ञा। तर्हि ह्रस्वस्य इति अभ्यासस्य ह्रस्वः भवति इत्युक्ते तत्र प्रथम ला इत्यस्य स्थाने लकारोत्तरप्रत्याकारस्य स्थाने ह्रस्वः विहितः ललाय इति पुनः दीर्घो अकितः नाम अभ्यासस्य दीर्घः कुत इति चेत् यमीपरे तत्र यमन्त स्थिति कृत्वा यमीपरे तत्र लकारस्य स्थाने पुनः दीर्घ आकारः विधीयते अतः पुनः लालाय इत्येव प्राप्तम्।
हा अपि च अत्र मनसि आगच्छति भवतः नाम चन्द्रशेखरमहोदय भवतः सिद्धान्तः तत्र साधु इति न भाति मम यतोहि तत्र अश् योगः या अश्य इति यदि अन्ते स्वरः भवेत् तर्हि अश् अ इति प्रथमभागः श्य इति भवति स्म किन्तु तथा नास्ति खलु अश् योगः श्य इति द्वि इति विभजनमस्ति न तु
तत्र समस्या अस्ति
अतः किञ्चित् द्रष्टव्यमस्ति अहं पृच्छामि अद्य नाम श्वः अद्य श्वः वा पृच्छामि किमस्ति। अस्तु तर्हि अग्रे पश्येम अत्र विद्याभगिनी अग्रे एवमेव
एवमेव वायोगः यङ् अत्र वायोगः य तत्र यङ् इति प्रत्ययः विधीयते तदनन्तरं संयङ्गोः इत्यनेन द्वित्वम् इदानीं वाय इत्यस्ति प्रथमस्य एकाच् भागस्य द्वित्वं तर्हि वा वाय अनन्तरं ह्रस्वः इत्यनेन वा वाय दीर्घोकितः इत्यनेन अकित अभ्यासस्य दीर्घादेशः वा वाय योगशप् योगः ते तत्र अतो गुणे इति कृत्वा वा वायते।
एवमेव
एवमेव भायोगः यङ् भायोगः य अत्र द्वित्वं भाभाय अनन्तरं ह्रस्वः इत्यनेन भाभाय अनन्तरं अभ्यासे चर्च इत्यनेन अल्पप्राणत्वं भाभाय अनन्तरं दीर्घोकितः इत्यनेन भाभायते।
बहु समीचीनमस्ति
तद् अभ्यासचर्च इति अन्य अन्ते आगच्छति खलु
परन्तु अत्र क्रमस्य अत्र महत्त्वं नास्ति इति वयं पूर्वं पठितवन्तः किल अत्र यत्र अभ्यासकार्यं भवति।
हा किन्तु तदेव सूत्रम् अपरस्मिन् अध्याये अस्ति इति कृत्वा प्रायः अन्ते स्यात् अन्यत् सर्वम् अपरस्य सर्वस्य क्रमः महत्त्वपूर्णः नास्ति किन्तु प्रायः तत् तस्य कारणमस्ति यत् तत्र अभ्यासकार्यस्य मातुः किमुक्तवती यत् तत्रैव भवेत् अस्तु यत् किमपि भवतु नाम तत्र फलं समानमेव इति कृत्वा नास्ति चिन्ता। अग्रे गच्छेम अपर्णभगिनी अग्रे अपर्णभगिनी अस्ति
आं महोदय अत्र दीर्घोकितः इति खलु महोदय
न सूत्रं कुत्र गतवती अत्र ध्येय इति धातुः अस्ति
एकनिमिषः अत्र
अस्तु अनन्तकृष्णमहोदय वदति वा अत्र किमस्ति
ध्यै यन् ध्याय ध्यै इति तत्र
प्रदर्शनी आसीत् किन्तु अत्र अहं विस्मृतवान् अत्र ध्याति कथं जातमस्ति
ध्यै इत्यस्य आदेश उपदेश अशीति इति सूत्रेण प्रथमं तत्र धात्वादेशः ध्या इति भवति
सत्यं
ध्या अनन्तरं ध्याय तत्र ध्याय इत्यस्मिन् अवसरे द्वित्वं हलादिः इत्यस्मात् कारणात् प्रथमभागस्य एकाच प्रथमभागस्य तत्र ध्याय अस्तु ध्या इति प्रथमभागः ध्याध्याय अनन्तरं प्रायः ह्रस्वः इत्यनेन ध्याय इति भवेत् अनन्तरं पुनः दीर्घो कितः इत्यनेन ध्याध्याय इति
अन्यानि कार्य सत्यं सत्यं किन्तु अन्यानि कार्याणि अपि सन्ति खलु तद् अभ्यास सामान्य अभ्यासकार्यं स्मरतु किं किम् अस्ति
सामान्य अभ्यासकार्यं किञ्चित् दृष्ट्वा वदामि प्रथमं हलादिशेषः इति भवति अस्तु हलादिशेषः ओ द्या इति हलादिशेषः इत्यनेन अङ्गस्य अभ्यासः हलादिः शेषः भवति इत्युक्ते द्या इत्यस्मिन् अवसरे तत्र दकारस्य ओ द्या क्षम्यताम् एकक्षणम् हलादिशेषः इत्यनेन किं भवति
आदिमः हल्
आदिमहल् तस्य शेषः इत्युक्ते सः एव वर्णः तिष्ठति खलु सर्व तेन तेन द्या तत्र द्याय इत्यस्मिन् अवसरे कथं द्याद्या इति कथं भवति
न केवलं प्रथम केवलं द्वित्वं कृत्वा
द्वित्वं कृत्वा अनन्तरं द्वित्वं कृत्वा अनन्तरं अभ्यासस्य प्रथमस्य अभ्याससङ्ख्या अस्ति अभ्यासस्य हलादिशेषः इत्यनेन द् एव तिष्ठति खलु द् ध्याय इति भवति वा ओ
नास्ति
यकारः न तिष्ठति परन्तु आकारः तिष्ठति इति अहं चिन्तयामि
सत्यं
दा ध्याय इति तिष्ठति
अपि च अन्यानि कानि तत्र अभ्यासकार्यं तत्र सर्वाणि सूत्राणि पश्यतु
हलादिशेषः अभवत् अनन्तरं षट्पूर्वः न ह्रस्वः इत्यनेन द इत्यस्य ध इति भवति द ध्याय इति भवति अभ्यासे चर्चा अस्ति अभ्यासे चर्चा इत्यस्मात् कारणात् धकारस्य तकारः भवति वा तकारः ततः तध्याय इति भवति
किन्तु विशिष्ट इदानीं सामान्य अभ्यासकार्यम् इदानीं विशेष अभ्यासकार्यं
विशेष अभ्यासकार्यं पश्यामः तध्याय इति अस्ति विशेष अभ्यासकार्यं तत्र
उपरि इदानीमेव प्रदर्शितमस्ति
तकारः नास्ति खलु दकारः एव खलु
अभ्यासः द इति उक्तं द इत्येव अस्ति दद इति उक्तं खलु अनन्तकृष्णः भवता उक्तं खलु द
इति उक्तवान् परन्तु अभ्यासे चर्चा इत्यनेन दकारस्य तकारः भवेत् खलु
जष्टुं जष्टुं महाप्राणस्य अपप्राणत्वं तेव अत्र चर् इति आदेशः नास्ति अपप्राणत्वं
ओ अस्तु अस्तु ततः दकारः तृतीयदकारः सो ततः द ध्याय इति भवति
किन्तु उपरि अस्ति तत्र दीर्घोकितः इति अस्ति
दीर्घोकितः दीर्घोकितः इत्यनेन पुनः दीर्घत्वं भवति दाद्याय इति भवति.
हा अपि च तत् तिङन्तरूपं किं
दाध्यायते इति भवति.
दाध्यायते इति रूपम् अस्ति. दीर्घोकितः इति विशिष्टम् अभ्यासकार्यं किमर्थम् उक्तम्?
विशिष्ट अभ्यासकार्यं किमर्थं चेत् तत्र अकित् यङ् निमित्तीकृत्य एव दीर्घोकितः इति सूत्रमस्ति.
यत्र
दीर्घः यङ् लुकोः इति अस्ति.
हा यञ् यन् लुकि च यत्र यत्र अभ्यासकार्यं तत्र तत्र इति नास्ति, केवलं यञ् यङ् लुकि च. अस्तु, ध्यै इति शीघ्रमेव पश्यामः. तत्र ग्लै इति पर्णभगिनी अस्ति वा?
हा आं महोदय, ग्लै अस्ति. ग्लै योगः यञ् अत्र प्रथमतया आदे च उपदेशे अशिति इत्यनेन एजन्तस्थाने अत्र आकारादेशः भवति.
अत्र ग्ला इति एव अस्ति, मया तत्र सम्यक् न लिखितमस्ति, शीघ्रमेव स्थापितं.
ओ अस्तु, ग्ला अस्ति, ग्ला योगः या. अधुना अत्र द्वित्वं भवति, एकाचो अजादेर् न एकाचो द्वे प्रथमस्य इत्यनेन अत्र ग्ला इत्यस्य द्वित्वं भवति. ग्ला ग्ला योगः या. अधुना हलादिशेषः इत्यनेन अत्र गा इत्येव अवतिष्ठति. गा ग्ला योगः यङ्. अधुना अत्र कुहोश्चुः इति सामान्याभ्यासकार्येण अत्र गास्थाने जकारादेशः भवति. जा ग्ला योगः य. सामान्य अभ्यासकार्ये अत्र ह्रस्वमपि भवति, ह्रस्वः, किन्तु अत्र अकितो दीर्घोकितः इत्यनेन पुनः अत्र दीर्घं भूत्वा जाग्लायते इति रूपं भवति.
हा हा हा, सत्यं, जाग्लायते इति रूपमस्ति. हेमा भगिनी अग्रे.
अग्रे चो इति अस्ति, तत्रापि एजन्तधातुः अस्ति इति कृत्वा आहत्वं भवति. तर्हि छाछाय इति अस्ति. इदानीं छाछाय तत्र तु न कार्यं करोति, केवलं ह्रस्वः प्रथमं भवति, तर्हि छाय इति भवति. तदनन्तरम् अभ्यासे चर्च् कारणतः तत्र चत्वं भूत्वा छाय, तर्हि छाय शप् विधीयते. तदनन्तरं प्रत्ययं योजयित्वा छायते.
दीर्घोकितः
पुनः दीर्घं भवति, सत्यं, चा छायते.
हा, अपि च अन्यत् किमपि कार्यमस्ति, अन्य कोऽपि वदति वा अत्र?
अत्र खेच इत्यनेन तुगागमः भवति वा?
हा, इति चिन्तनमस्ति, सम्यक् वदतु.
हा, अत्र छा छ इति अस्ति. छे परे पूर्व अच्वर्णस्य तुगागमः भवति, अतः छात् छायते. अधुना अत्र स्तोः श्चुनाश्चुः इत्यनेन तकारस्य स्थाने चकारादेशः भवति, अतः छाच्छायते इति रूपम्.
परन्तु महोदय, तत्र ह्रस्वः अत्र छा इति दीर्घोकितः कारणेन तत्र छेच न भवति इति मन्ये.
अत्र दीर्घात् इति अन्यत् सूत्रेण तुकागमः भवति प्रायः.
दीर्घात् इति वा
प्रायः
भवति? कुत्र दृष्टवती?
अहं न दृष्टवती. अहं कुत्रचित् पूर्वं वर्गे वयं चर्चितवन्तः, चिन्तनवर्गे, भव्या भगिनी उक्तवती दीर्घात् इति सूत्रं.
भव्या भगिनी उक्तवती सूत्रं? सूत्रं किं?
दीर्घाच्च इति प्रायः दीर्घात् स्वरात्
तुकागमः भवति चकारे परे.
अत्र यतोहि प्रश्नः अस्ति दीर्घात् यतोहि अत्र अङ्गकार्यमस्ति अभ्यासकार्यमिति कृत्वा तत्र सन्धिकार्यम् अनन्तरं भवति इति कृत्वा छेचातीनेन न भवति स्म इति समस्या अस्ति. अतः अन्यत् सूत्रं तत् मम परिचितं नास्ति, इदानीं द्रष्टव्यमस्ति. अस्तु, अन्तिममस्ति, अन्तिमं द्रोणमानवति वा?
आं महोदय, म्लै योगयम् आदेश उपदेश अशीति इत्यनेन तत्र म्ला म्लाय इति भवति. तर्हि म्ला म्लाय द्वित्वं तर्हि तत्र हलादिशेषः इत्यनेन माम्लाय ह्रस्वस्य मम्लाय दीर्घ अकिते इत्यनेन माम्लाय
माम्लाय. हा, तिङन्तपदं
माम्लायते.
हा अस्तु, इति सामान्य आकारान्तानाम् एजन्तानां च चिन्तनं बहु समीचीनम् अस्ति. समयः अपि जातः. धन्यवादः सर्वेषाम्. इतः अग्रे सरेम अग्रिमे सप्ताहे. नमस्कारः, शुभरात्रि.
धन्यवादः महोदय, शुभरात्रि.
धन्यवादः महोदय, नमस्कारः.
धन्यवादः, नमस्कारः.